इयम् आकाशवाणी। सम्प्रति वार्ताः श्रूयन्ताम्। आदौ मुख्याः वार्ताः। राष्ट्रपति पदासीना द्रौपदी मुर्मुः अवोचत् यत् केन्द्रम् उच्चशिक्षायाम् AI इत्यस्य एकीकरणाय सक्रियतया उपायान् स्वीकरोति। काशी तमिल संगमम् इत्यस्य तृतीयं संस्करणं वाराणसी नगरे आरभते। अनेन हि सांस्कृतिक बौद्धिक सम्बन्धाः प्रवर्धन्ते। केन्द्रीय सतर्कता आयोगः दिल्ली नगरस्य पूर्व मुख्यमन्त्रिणः अरविन्द केजरीवालस्य निवासस्य नवीकरणस्य कथित अनियमिततानां विषये अन्वेषणस्य आदेशं दत्तवान्। अमेरिका देशस्य सैन्यबलं सेनायां समलैंगिक जनानां नियुक्तिं प्रतिनिषिद्धवत्। अपि च क्रीडा वार्तासु, एथलेटिक्स क्रीडायां गुलवीर सिंहः बोस्टन नगरे डेविड हेमरी इन्विटेशनल मीट इत्यस्यां 3,000 मीटर परिमित स्पर्धायां राष्ट्रिय कीर्तिमानं भंगं कुर्वन् रजत पदकं प्राप्तवान्। अथ वार्ताः विशदीकृत्य। राष्ट्रपति पदासीना द्रौपदी मुर्मुः प्रावोचत् यत् केन्द्रं प्रशासनं कृत्रिम बुद्धिमताम् उच्चशिक्षायां सम्मिलितुं पदक्षेपम् उत्थापयति। रांची नगरस्य मेसरा इत्यत्र अद्य बिरला इंस्टीट्यूट ऑफ टेक्नोलॉजी इत्यस्य 70 वर्षाणां जयन्त्यवसरे कार्यक्रमं सम्बोधयन्ती राष्ट्रपतिः अवदत् यत् भविष्यकाले कृत्रिम बुद्धिमत्तायाः प्रभावेन बृहत्तम परिवर्तनम् आगमिष्यति। राष्ट्रपतिना अग्रे निगदितं यत् विकसित भारतस्य निर्माणे यूनाम् उत्साहः प्रतिबद्धता च महत्वपूर्णां भूमिकां निभालयिष्यति। अपि च एतदर्थम् अन्वेषकैः उद्यमीभिः च परम्परागत समुदायानां ज्ञानं नैव अनवधातव्यम्। महिलानां सशक्तकरणदिशि राष्ट्रपतिः निगदितवती यत् बालिकानां विज्ञान प्रौद्योगिकी अभियान्त्रिक गणित सदृशेषु क्षेत्रेषु सहभागित्वं विद्यते। अत्रावसरे राज्यपालः संतोष कुमार गंगवारः अपि कार्यक्रमम् एनं सम्बोधितवान्। असौ अकथयत् यत् नवीने भारते शिक्षाक्षेत्रे बालिकानां प्रदर्शनं बालकेभ्यः विशिष्टम् अद्भुतं चास्ति। तमिलनाडु काशी नगरयोः च मध्ये सांस्कृतिकं बौद्धिकं च सम्बन्धं प्रवर्धमानं काशी तमिल संगमं तृतीयं संस्करणं अद्य उत्तरप्रदेशस्य वाराणस्याम् आरभत। केन्द्रीय मंत्री धर्मेन्द्र प्रधानः डॉ एल मुरुगनः मुख्यमंत्री योगी आदित्यनाथः च कार्यक्रमस्यास्य उद्घाटनम् अकार्षुः। केन्द्रीय सतर्कता योगेन 6 इत्यभिनाम ध्येयकस्य फ्लैगस्टॉफ रोड भवनस्य निर्माणे नवीकरणे च अनियमिततायाः आरोपाणां निरीक्षणाय आदेशः प्रख्यापितः। आम आदमी पार्टीति दलस्य संयोजकः अरविन्द केजरीवालः दिल्ल्याः मुख्यमंत्री रूपेण निवसन् आसीत्। आयोगेन भारतीय जनता पार्टी दलस्य वरिष्ठ नेतुः रोहिणीतः विधायकस्य विजेन्द्र गुप्ता इत्येतस्य परिवेदनायां केन्द्रीय लोक निर्माण विभागाय निरीक्षणार्थम् आदेशः प्रदत्तः। वार्ताहरैः सह संलापे श्रीगुप्ता कथितवान् यत् आयोगेन तथ्याधारिते परिवेदनायां संज्ञानं गृहीतम्।
जो शीश महल दिखाई दे रहा है खाली इतना नहीं है, वो उसके साथ वहाँ पर कई टावर बन रहे हैं जो अधूरे पड़े हैं, उन पर भी करोड़ों रुपए खर्च हुए। वो टावर जो बन रहे हैं नए, उनमें क्या होना था, क्या बनाया जा रहा था, उसकी भी पूरी जांच होनी चाहिए। और इस पर सेंट्रल विजिलेंस कमीशन ने आदेश दिए हैं CPWD को। मैं CVC के इस कदम का स्वागत करता हूं। सेंट्रल विजिलेंस कमीशन ने इस पर कॉग्निजेंस लिया है, इनके खिलाफ सख्त से सख्त कार्रवाई होनी चाहिए।
संस्कृत वार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ newsonair चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। अमेरिकीय सैन्यबलं प्रबलतया अघोषयत् यत् इदानीं समलैंगिक जनान् सेनायां नामांकनं कर्तुं न अनुमन्यते। लिंग संक्रांति प्रक्रिया अपि न प्रदत्ता भविष्यति इति। सामाजिक संदेश पटले अमेरिकीय सैन्य बलं प्रार्थयत् यत् जेंडर डिस्फोरिया इत्यनेन पीडिताः जनाः राष्ट्रस्य सेवायां इच्छुकानां कृते सम्मानेन आदरेण च व्यवहृताः भविष्यन्ति इति। लिंग समर्थन परिचर्या अनिर्दिष्ट कालं यावत् स्थगिता भविष्यति इति सेना अवोचत्। सम्प्रति महाकुंभ सम्बद्धाः वार्ताः श्रूयन्ताम्।
प्रयागराजे महाकुंभे श्रद्धालूनां बृहत्तमानां संख्याम् अन्वीक्ष्य उत्तरप्रदेश परिवहन निगमः अग्रिमेषु त्रिषु दिवसेषु सार्धद्विशतोत्तरद्विसहस्र संख्यकानां बसयानानां प्रचालनस्य घोषणां कृतवान्। अद्य प्रायशः 370,000 जनाः संगमे पवित्रे स्नानं समाचरितवन्तः। महाकुंभाय अस्मै अद्य श्वः च बृहत्तमायां संख्यायां श्रद्धालूनाम् आगमनस्य सम्भावना दरीदृश्यते। एतदर्थं अनेकानि अतिरिक्त लोकयानानि प्रचाल्यन्ते। उत्तरप्रदेशस्य परिवहन मन्त्री दयाशंकर सिंहः निर्दिष्टवान् यत् प्रयागराजस्य विविधेषु अस्थायी बस स्थानकेषु अधिकारीणां दायित्वम् एतदर्थं सुनिश्चितं भविष्यति, येन हि लोकयानानां संचालनं सुचारुरीत्या भवितुं शक्यते। अत्रावधौ प्रयागराज संगम रेलवे स्थानकम् अद्य श्वः च पिहितं भविष्यति। संस्कृतवार्ता कक्षतः निधिः तिवारी।
प्रधानमंत्री नरेन्द्र मोदी श्वः नवदिल्ल्याः भारत मण्डपे 25,000+ वर्षस्य भारत टेक्स इत्यस्य कार्यक्रमे भागं गृह्णीयात्। अवसरेऽस्मिन् सः सभां सम्बोधयिष्यति। प्रधानमंत्री नरेन्द्र मोदी अद्य समुदीरितवान् यत् वित्तमंत्री पदासीना निर्मला सीतारामन इत्येषा साम्प्रतिके एव समये संसदि स्वभाषणावधौ भारतीयार्थ व्यवस्थायाः स्पष्टं चित्रं प्रस्तुतवती। परीक्षा में चर्चा इत्येतस्य परीक्षा सम्बद्ध कार्यक्रमस्य पञ्चमे संस्करणं छात्रान् मस्तिष्कगत चमत्कारम् अवबोधयति। अद्य कार्यक्रमस्य एकस्मिन् भागे प्रसिद्धः आध्यात्मिक नेता सद्गुरुः शिक्षणं क्रीडारूपं कर्तुं समन्वययुतं जीवन्तं च मनसः पोषणं कर्तुं च अन्तर्दृष्टिं विनियमीकृतवान्। केन्द्रीय अन्वेषण विभागः अन्तर्जालिक अपराध प्रकरणस्य विषये दिल्ली सहसान्वेषणं चकार। सहसान्वेषणे 1,00,000 रूप्यकाणि 1,000,000 विदेशीय मुद्रा समेत्य स्वर्णं प्राप्तम्। गतरात्रौ उत्तर प्रदेशस्य प्रयागराज जनपदे कारयान बसयानयोर्मध्ये अभिघर्षणे 10 जनाः मृत्युमुपगताः, अन्ये 19 जनाः व्रणिताः अभवन्। प्रयागराज नगरस्य आरक्षकायुक्तः तरुणः गाबा इत्येषः अवोचत् यत् कारयानं छत्तीसगढस्य कोरबा नगरात् प्रयागराजं प्रति आगच्छत् आसीत्। राष्ट्रपतिः द्रौपदी मुर्मुः एकस्मिन् सामाजिक अन्तर्जालीय पटले दुरापन्नायां दुर्घटनायां मृतकानां कुटुम्बकेभ्यः शोकं प्रकटितवती। सममेव व्रणितानां जनानां शीघ्र स्वास्थ्यस्य कामनां कृतवती। भारतस्य गुलवीर सिंहः बोस्टन नगरे डेविड हेमरी इन्विटेशनल मीट इत्यस्मिन् पुरुषाणां 3,000 मीटर आभ्यन्तर स्पर्धायां 17-वर्षीयं राष्ट्रिय कीर्तिमानं विरच्य इतिहासं निर्ममे। 7 निमेषेषु 38 क्षणेषु स्पर्धां समाप्य गुलवीरः न केवलं रजत पदकम् अवाप्नोत् अपि तु सुरेन्द्र सिंहस्य पूर्वतन राष्ट्रिय कीर्तिमानम् अपि पारं कृतवान्। महिला प्रीमियर लीग क्रिकेट स्पर्धायाम् अद्य 7:30 बडोदरायां मुंबई इंडियंस दलस्य स्पर्धा दिल्ली कैपिटल्स दलस्य साकं भविता। स्पर्धायाः प्रथमे चरणे एव गतरात्रौ बडोदरायां रॉयल चैलेंजर्स बेंगलुरु दलेन गुजरात जायंट्स दलं 6 स्तोभैः पराजितम् इति वार्ताः।